अथ श्रीराधाषोडशनामावली स्तोत्रम् राधारासेश्वरी रासवासिनी रसिकेश्वरी कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी कृष्णवामाङ्गसम्भूता परमानन्दरूपिणी कृष्णावृन्दावनी वृन्दा वृन्दावनविनोदिनी चन्द्रावली चन्द्रकान्ता शरच्चन्द्रप्रभानना नामान्येतानि साराणि तेषामभ्यन्तराणि च राधेत्येवै च संसिद्धौ राकारो दानवाचकः स्वयं निर्वाणदात्रीया साराधा परिकीर्तिता रासेश्वरस्य पत्नीयन्तेन रासेश्वरी स्मृता रासे च वासो यस्याश्च तेन सारासवासिनी हमारोधन राधा श्रीराधा श्रीराधा परम धन राधा श्रीराधा श्रीराधा सर्वासां रसिकानाय च देवी नामीश्वरी परा प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः कृष्णप्राणाधिका सा च कृष्णेन परिकीर्तिता कृष्णस्याति प्रिया कान्ता कृष्णो वास्याः प्रियः सदा सर्वैर्देवगणैरुक्ता तेन कृष्णप्रिया स्मृता कृष्णरूपं सन्निधातुं या शक्ता चावलीलया सर्वांशैकृष्णसदृशी तेन कृष्णस्वरूपिणी वामाङ्गार्धेन कृष्णस्य या सम्भूता परासति कृष्णवामाङ्गसम्भूता तेन कृष्णेन कीर्तिता हमारोधन राधा श्रीराधा श्रीराधा परम धन राधा श्रीराधा श्रीराधा परमानन्दरासिश्च स्वयं मूर्तिमती सती श्रुतिभिः कीर्तिता तेन परमानन्दरूपिणी कृषिर्मोक्षार्थवचनो आकारोदातृवचनस्तेन कृष्णा प्रकीर्तिता अस्ति वृन्दावनैयस्यास्तेन वृन्दावती स्मृता वृन्दावनस्याधिदेवी तेन वाथ प्रकीर्तिता सङ्घसखीना वृन्दस्यादकारोऽप्यस्ति वाचकः सखि वृन्दोऽस्ति यस्याश्च सा वृन्दा परिकीर्तिता वृन्दावने विनोदश्च सोऽस्यायस्ति च तत्र वै वेदा वदन्ति तान् तेन वृन्दावनविनोदिनीम् अमरुधन राधा श्रीराधा परम धन राधा श्रीराधा श्रीराधा नखचन्द्रावली वक्त्रचन्द्रोऽस्ति यत्र सन्ततम् तेन चन्द्रावली सा च कृष्णेन परिकीर्तिता कान्तिरस्ति चन्द्रतुल्या सदा यस्यादिवानिशम् मुनिना कीर्तिता तेन शरच्चन्द्रप्रभानना इदं षोडश नामोक्तमर्थव्याख्यानसंयुतम् नारायणेन यद्दत्तं ब्रह्मणेनाभिपङ्कजे ब्रह्मणा च पुरा दत्तं धर्माय जनकाय मे धर्मेण कृपया दत्तं मह्यमादित्यपर्वणि पुष्करे च महातीर्थे पुण्या हे देवसंसदि राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं मया मुने अमारु धन राधा श्रीराधा श्रीराधा परम धन राधा श्रीराधा श्रीराधा निन्दकाया वैष्णवाय न दातव्यं महामुने यावज्जीवमिदं स्तोत्रं त्रिसन्ध्यैः पठेन्नरः राधामाधवयोः पादपद्मी भक्तिर्भवेदिह अन्ते लभेत्तयोर्दास्यं शश्वत्सहचरो भवेत् अणिमादिकसिद्धेः च सम्प्राप्य नित्यविग्रहम् व्रतदानोपवासैश्च सर्वैर्नियमपूर्वकैः चतुर्णाय चैव वेदानां पाठसर्वार्थसंयुतैः सर्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः प्रदक्षिणेन भूमेश्च कृत्स्नाया एव सप्तधा शरणागतरक्षायामज्ञानाय ज्ञानदानतः देवानां वैष्णवानाय च दर्शनेनापि यत्फलं तदेव स्तोत्रपाठस्य कलानार्हति षोडशी स्तोत्रस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः अमारो धन राधा श्रीराधा श्रीराधा परम धन राधा श्री राधा श्री राधा हमारो धन राधा 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 परम धन राधा 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 हमारो धन राधा श्री राधा श्री राधा परम धन राधा श्री राधा श्री राधा। इति श्री ब्रह्मवैवर्त पुराणे श्री कृष्ण जन्म खंडे श्री नारायण कृतं राधा षोडश नाम स्तोत्रं संपूर्ण।